अहम् कः?
अहम् कवित्वकला निष्णातः, गद्यपद्यलेखे विख्यातः।
अहम् शत्रुसेनायाः कालः, दुष्टजनानां कृते करालः।
अहम् ब्रह्मचर्यव्रतधारी, निगमागमवेदान्तविचारी।
अहम् सकलपशुपालनदक्षः, सदा दुग्धदधिघृतमयभक्षः।
अहम् कठिनकृषिकर्मप्रवीणः, अन्नोत्पादनकलाधुरीणः।
सदा निष्क्रियः सततं धीरः, अहम् केवलं भोजनवीरः।